सर्वेभ्यो नमस्कारः, सर्वेषां स्वागतम्. गतवर्गे वयं क्रियापदस्य विषये अभ्यासं कृतवन्तः. कथम् अभ्यासं कृतवन्तः? अस्माकं प्रमुखपाठः कस्मिन् विषये आसीत् इत्युक्ते, मध्यमपुरुषे उत्तमपुरुषः, प्रथमपुरुषः, मध्यमपुरुषः अस्ति. तत्र वर्तमानकालः कथं भवति, वर्तमानकालः क्रियापदस्य रूपं कथं भवति इति वयम् अनेकाः अभ्यासाः कृत अनेके अभ्यासाः कृतवन्तः वयम्. अस्तु, सर्वे स्मरन्ति वा तस्मिन् विषये किं किं वयं पठितवन्तः इति? जानकी भगिनी, भवती स्मरति वा? स्मरति किल? अस्तु, केवलं किञ्चित् स्मरणार्थं किञ्चित् लघु अभ्यासं कुर्मः, अनन्तरं पाठस्य विषये पश्यामः. अस्तु, नूतनपाठं पश्यामः. अस्तु, इदानीम् आरम्भं कुर्मः. पेज् नम्बर् 38 गीतासोपानं पुस्तके, पेज् नम्बर् 38 मध्ये किञ्चित् अभ्यासं कुर्मः. अस्तु, जानकी भगिनी सिद्धा वा भवती?
आं, सिद्धां सिद्धयामि भगिनि.
अहं सिद्धा अस्मि.
अहं सिद्धा अस्मि भगिनि.
सुन्दरं सुन्दरम्. अस्तु, बालकः अस्ति इति उपयोगं कृत्वा वदतु कृपया. बालकः
अस्ति, बालकौ स्तः, बालकाः सन्ति.
सुन्दरम्. अनन्तरं
मित्रम् इच्छति, मित्रे इच्छतः, मित्राणि इच्छन्ति.
सुन्दरम्. अनन्तरं
बालिका वदति, बालिके वदतः, बालिकाः वदन्ति.
सुन्दरं, धन्यवादः. इदानीं धन्यवादः भगिनी जानकी भगिनी.
धन्यवादः
सविता. धन्यवादः सविता भगिनी.
आं भगिनि,
भवती, भवान्, सः, सा, तत्सर्वं वदतु.
आं भगिनि, ओके. भवती अस्ति, भवन्ति.
भगिनी, अत्र भवती इति दीर्घ ईकारान्तशब्दः अस्ति, अतः तद् उच्चारणं समीचीनमस्ति चेत् सम्यक् भवति. भवती इति अस्ति चेत् अस्ति इति अर्थः भवति किल?
आं भगिनि.
अतः भवती इति ह्रस्व ईकारः अस्ति चेत् क्रियापदं भवति, दीर्घ ईकारः अस्ति चेत् अत्र नामपदं.
भवती वदति, भवत्यौ वदतः, भवत्यः वदन्ति.
न, क्रियापदं मास्तु. अहं किं वक्तुम् इच्छामि चेत्, भवती अस्ति, भवत्यौ स्तः, भवत्यः सन्ति इति वदतु.
आं भगिनि, भवती अस्ति, भवत्यौ स्तः, भवत्यः सन्ति.
तादृशम्. अनन्तरं
भवान् अस्ति, भवन्तौ स्तः, भवन्तः सन्ति. सः इच्छति, तौ इच्छतः, ते इच्छन्ति. सा वदति, ते वदतः, ताः वदन्ति.
अत्र बहुवचने ते अस्ति चेत् पुल्लिङ्गशब्दः वा स्त्रीलिङ्गशब्दः वा?
बहुवचन पुल्लिङ्गशब्दः भगिनि.
आम्, द्विवचने ते अस्ति चेत्
स्त्रीलिङ्गशब्दः.
अनन्तरं नपुंसकलिङ्गे ते इति अस्ति चेत्
द्विवचने.
आम् आम्, तादृशं किञ्चित् चिन्तनस्य आवश्यकम् अस्ति.
आं भगिनि,
आरम्भकाले किञ्चित् भ्रमः भवति. अस्तु, परन्तु तादृशं चिन्तनीयमपि चिन्तनमपि अस्ति, अतः तादृशम् अहं पृष्टवती. भ्रमः मास्तु, भ्रमः मास्तु. ते उदाहरणार्थं ते स्तः इति अस्ति चेत् द्विवचनं वा बहुवचनं वा?
द्विवचनं. द्विवचनं स्त्रीलिङ्गशब्दः भवति भगिनि.
स्त्रीलिङ्गमर्हति. सन्दर्भ अनुसारेण, सन्दर्भस्य अनुसारेण वयं ज्ञातुं शक्नुमः स्त्रीलिङ्गं वा नपुंसकलिङ्गं वा इति.
द्विवचनं वा भगिनि.
सुन्दरं. अनन्तरं ते सन्ति इति अस्ति चेत्
पुल्लिङ्गशब्दः भवति भगिनि.
पुल्लिङ्गशब्दः बहुवचनं,
बहुवचन भवति.
सत्यं सत्यं, समीचीनम्. धन्यवादः भगिनि.
धन्यवादः भगिनि.
धन्यवादः. अवगच्छति किल भगिनि?
अवगच्छामि भगिनि.
अनन्तरं रविमहोदय.
आं भगिनि.
भवान् प्रथमपुरुषस्य विषये इदानीं तावदेव समीचीनं भवति, अतः भवान् मध्यमपुरुषस्य विषये आरम्भं करोतु.
आं भगिनि. त्वं रैट्? त्वं
सत्यं सत्यं.
त्वं असि, त्वं गच्छसि.
महोदय, त्वम् असि इति उक्तवान् किल. अनन्तरं द्विवचनं वदतु.
ओके. त्वम् असि, युवां स्तः, यूयं स्त.
आम्. इदानीं कुत्रापि यदा वयं कथां एकां कथा अस्ति वयं पठामः चेत् स्त इति अस्ति चेत् तस्य वचनं किं?
स्त इस् बहुवचनं.
सत्यं. स्तः इति अस्ति चेत्
स्तः इस् द्विवचनं भगिनि.
सत्यं सत्यं. अनन्तरं इदानीं स्त इति अस्ति चेत् कः पुरुषः?
मध्यमपुरुषः.
सत्यं सत्यं. तादृशम् अवगमनम् आवश्यकम् अस्ति. अस्तु. असि, त्वम् असि इति अस्ति चेत् पुरुषः कः?
मध्यमपुरुषः.
सत्यं. यूयं वदथ इति अस्ति, पुरुषः कः?
यूयं वदथ मध्यमपुरुषः.
सत्यं. वयं स्मः इति अस्ति चेत् पुरुषः कः?
वयं
स्मः.
वयं स्मः इस् अ मध्यमपुरुषः.
कुत्र अस्ति महोदय, मां दर्शयतु, कुत्र अस्ति मध्यमपुरुषे वयं स्मः इति कुत्र अस्ति?
सारि 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 भगिनि, वयं स्मः इस् अ उत्तमपुरुषः.
सत्यं सत्यं. कुत्र अस्ति इदानीं, कुत्र अस्ति इति इदानीं भवान् दृष्टवान् वा सम्यक्तया?
आं भगिनि.
स्पष्टमस्ति वा?
आं भगिनि, स्पष्टं स्पष्टमस्ति.
स्पष्टमस्ति. अस्तु महोदय, इदानीं त्वम् अस्ति, युवां, युवां स्थः, यूयं स्थ इति अस्ति. अनन्तरं पठतु, अग्रे पठतु.
आं भगिनि. त्वं गच्छसि, युवां गच्छतः, यूयं गच्छत.
सत्यम्. अनन्तरं
त्वं वससि, युवां वसतः, यूयं वसत.
सत्यं. कुत्रापि भवान् क्रियापदस्य अन्ते सि इति दृष्टवान् चेत् तत् मध्यमपुरुष एकवचनमिति अवगच्छतु. अस्तु.
आं भगिनि.
सः इति आगच्छति क्रियापदस्य अन्ते सः सः इति आगच्छति चेत्
बहुवचन
मध्यमपुरुषः एव द्विवचनं मध्यमपुरुष द्विवचनं केवलं विसर्गः नास्ति केवलं स्थः थः सः इति आगच्छति चेत् द्विवचनं केवलं स एव अस्ति चेत् बहुवचनं
बहुवचनस्य
अन्ते क्रियापदस्य अन्ते अवगच्छति वा.
आं भगिनि.
इदानीं तस्य किञ्चित् समयस्य अनन्तरम् एकं कथां वयं पठामः तत्र तादृशं भवति अतः एव अहं तादृशं अभ्यासं करोमि. अस्तु. अस्तु समीचीनं धन्यवादः महोदय. माधवी भगिनि. माधवी
भगिनि उत्तमपुरुषः उत्तमपुरुषः अहम् अस्मि आवां सः स्वः वयं गच्छामि आवां गच्छावः वयं गच्छामः अहं वसामि आवां वसावः वयं वसामः.
सुन्दरं सुन्दरं धन्यवादः भगिनि. इदानीं धन्यवादः. अहम् अस्मि इति अस्ति चेत् पुरुषः कः.
उत्तमपुरुषः एकवचनं.
वयं गच्छामः इति अस्ति चेत् पुरुषः कः.
वयं गच्छामः उत्तमपुरुष बहुवचनम्.
आवां वसावः इति अस्ति चेत्
आवाम् उत्तमपुरुष द्विवचनं.
सत्यं सत्यम्. युवां वसतः इति अस्ति चेत्
युवां वसतः मध्यमपुरुष द्विवचनं.
सत्यं सुन्दरं. तादृशं स्मरतु यद् भवान् यद् भवती पठितवती सम्यक्तया अवगच्छति तत् स्मरतु कृपया. इदानीम् अभ्यासं वयं कृतवन्तः. धन्यवादः भगिनि. अभ्यासं वयं कृतवन्तः. किञ्चित् लघु अभ्यासमपि अस्ति. सुधा भगिनी एकः प्रश्नः.
आं भगिनि.
अस्ति सः सन्ति इत्यस्ति किल प्रथमपुरुषस्य अस् धातुः कथं भवति मध्यमपुरुष कथं मध्यमपुरुषे कथं भवति उत्तमपुरुषे कथं भवति इति वक्तुं शक्नोति वा.
आं भगिनि.
सावधानेन मन्देन वदतु.
आं भगिनि. प्रथमपुरुषे एकवचने अस्ति प्रथमपुरुषे द्विवचने स्तः प्रथमपुरुषे
भगिनि केवलं पदमेव वदतु.
अस्तु.
अस्ति
प्रथमपुरुषे अस्ति स्तः सन्ति मध्यमपुरुषे असि स्तः स्थ उत्तमपुरुषे अस्मि स्वः स्मः.
सुन्दरं सुन्दरं बहु सुन्दरं धन्यवादः. रविमहोदय. रविमहोदय इदानीं सुधा भगिनी किम् उक्तवती इति भवान् अवगतवान् वा.
सारी भगिनि.
सुधा भगिनी किम् उक्तवती इति भवान् अवगतवान् वा.
She summarized the प्रथमपुरुषः मध्यमपुरुषः then उत्तमपुरुषः भगिनि.
सत्यं. फार् विच् वाट् डिड् शी टेल्. केन् यू रिपीट् द सेम्. भवान् वक्तुं शक्नोति वा प्रयत्नं करोति वा दृष्ट्वा वदतु अत्रैव अस्ति.
प्रथमपुरुषः
प्रथमपुरुषे
सः अस्ति
न न सः अस्ति
या सः अस्ति
न महोदय. एकनिमिषः सुधा भगिनी वदति. अस्तु भवान् शृणोतु पुनः भवानेव वदतु तादृशम्. अस्तु सुधा भगिनी सहायं करोति वा पुनः वदति वा भवती.
आं भगिनि. अस्तातुतः प्रथमपुरुषे अस्ति स्तः सन्ति मध्यमपुरुषे असि स्त उत्तमपुरुषी अस्मि स्मः स्मः
सत्यं सुन्दरं धन्यवादः धन्यवादः आम् रविमहोदय भवान् वदति वा
आं भगिनि प्रथमपुरुषः अस्ति स्तः सन्ति
सत्यं
मध्यमपुरुषः असि स्तः स्थ
अनन्तरं
पुरुषः अस्मि स्वः स्मः स्वः स्मः आं भगिनि अवगच्छामि
धन्यवादः महोदय धन्यवादः इदानीं मधु भगिनि मधु भगिनि
आं भगिनि
स्वागतं भगिनि स्वागतं तादृशं यदा यथा रविमहोदय उक्तवान् तथा भवती वदति वा गच्छति इति आरम्भं करोति वा गच्छति
प्रथमपुरुषे गच्छति गच्छतः गच्छन्ति मध्यमपुरुषे गच्छसि गच्छतः गच्छतः उत्तमपुरुषे गच्छामि गच्छामः गच्छामः
समीचीनं समीचीनम् अनन्तरम् इच्छति
प्रथमपुरुषे इच्छति इच्छतः इच्छन्ति मध्यमपुरुषे इच्छसि इच्छतः इच्छतः उत्तमपुरुषे इच्छामि इच्छावः इच्छामः
धन्यवादः भगिनि धन्यवादः स्पष्टमस्ति वा भगिनि
आं भगिनि स्पष्टमस्ति
समीचीनं धन्यवादः अनन्तरं चम्पा भगिनि
भगिनि आम्
अस्ति वा
आम् आं भगिनि आम्
खादति खादति
खादति खादति खादतः खादन्ति खादसि खादथः खादथ खादामि खादावः खादामः
सुन्दरं सुन्दरं सुन्दरम् अनन्तरम् आम् एकनिमिषः अन्य उदाहरणमपि पठति
पठति पठतः पठन्ति पठसि पठतः पठथ पठामि पठावः पठामः
सुन्दरं धन्यवादः भगिनि स्पष्टमस्ति वा
आम् आं स्पष्टम्
अस्ति किल धन्यवादः अनन्तरं राधिका भगिनि
आं भगिनि
आमां प्रश्नः अस्ति माता वदति इति त्रिषु लिङ्गेषु त्रिषु पुरुषेषु वदतु कृपया
मम माता वदति
केवलं माता
मम
माता माता वदति
माता ओके 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 मामा माता वदति मातरौ वदतः मातरः वदन्ति माता वदस् न त्वं वदसि युवां वदतः यूयं वदथ उत्तमपुरुषे अहं वदामि आवां वदावः वयं वदामः
सुन्दरं धन्यवादः भगिनि अनन्तरं
धन्यवादः
अग्रे पश्य इदानीं पश्यामः अग्रे गच्छामः पेज् नम्बर् 40 मध्ये इदानीं पठामः वा शोभना भगिनि
आं भगिनि
आरम्भं करोति वा तृतीय अभ्यासः
एतस्य एतस्य कोष्टकस्य सहायेन यथोदाहरणं पञ्च पञ्चदशानि वाक्यानि वदत.
पञ्चदशवाक्यानि
वदत. सारथिः सारथी सारथयः मुनिः मुनी मुनयः
भगिनी. इदानीम् एकनिमिषः भगिनि, इदानीं भवती प्रथम कोष्टके नामपदमस्ति, द्वितीयकोष्टके क्रियापदमस्ति, द्वयं योजयित्वा नामपदं क्रियापदं योजयित्वा वाक्यं रचयतु. सारथिः चालयति.
सारथिः चालयति. सारथी चालयत चालयतः. सारथयः चालयन्ति. मुनिः चालयति. मुनी चालयतः. मुनयः चालयन्ति. शत्रुः चालयति. शत्रू चालयतः. शत्रवः चालयन्ति. इन्द्रियं.
धन्यवादः भगिनि.
इन्द्रियं चालयति. इन्द्रिये चालयतः. इन्द्रियाणि चालयन्ति.
अस्तु, भवती किमपि क्रियापदानि उपयोगं कर्तुं शक्नोति. वयं शक्नुमः. केवलं चालति एव वक्तुं योजनीयमिति नियमः अस्ति. जपति, असूयति इति किमपि क्रियापदं योजयित्वा वक्तुम् अस्तु.
ओके.
धन्यवादः भगिनि.
धन्यवादः भगिनि.
धन्यवादः. अग्रे ऊर्मिला भगिनि.
आं भगिनि.
दुष्टः.
ओके. दुष्टः दृश्यति, कृत्यति, कुप्यति. दृश्यति सम्यक् वा? नास्ति. दृश्यते
न भगिनि. अत्र क्रियापदानि सन्ति किल, तद् उपयोगं कृत्वा एव वदतु.
अस्तु.
दक्षिणभागे क्रियापदमस्ति किल, तद् उपयोगं कृत्वा वदतु
कृपया. दुष्टः असूयति. दुष्टौ असूयतः. दुष्टः असूयन्ति.
दुष्टाः असूयन्ति. समीचीनम्. अग्रे
नवरूपाणि वदामि वा?
किं भगिनि?
लैक् 9 रूपं वदामि वा?
तादृशम् इदानीम् आवश्यकं नास्ति, केवलं चेदुदेव अभ्यासमेव. अग्रे गच्छतु, गृहे अभ्यासं कुर्मः. यद् अत्र अस्ति तदेव कुर्मः इदानीम्.
अस्तु.
त्वं युवां यूयम् अस्ति किल, तद् वदतु.
त्वं जपति. युवां जपतः. यूयं जपन्ति.
भगिनी इदानीं चिन्तनम् आवश्यकमस्ति.
अहं
जप करोति वा भवती सम्यक्तया?
आम्
जप करोति चेत् सम्यक्तया करणीयम्. आम् करोतु. इदानीं सम्यक्तया वदतु, प्रयत्नं करोतु.
अहं जपामि.
न अत्र त्वं युवां यूयम् अस्ति, अत्र क्रियापदं कथं परिवर्तनं भवति?
अस्तु. त्वं मोहयसि.
आम् जपसि इति वदतु. जपति इति उक्तवती किल, तत्र जपसि इति वदतु.
ओ क्षम्यताम् अहं अवगच्छामि. ओके.
अवगच्छति वा? अवगच्छति वा?
न वा, इदानीम् अहम् अवगच्छामि.
चिन्ता मास्तु.
त्वं जपसि. युवां जपथः. यूयं जपथ.
पुनः वदतु. पुनः.
ओके. त्वं जपसि युवां जपथः
भगिनी भगिनी न न एकनिमिषः त्वं
त्वं जपसि
जपसि न जपसि
जपसि
त्वं जपसि
युवां जप जपथः यूयं जपथ
सत्यं स्पष्टमस्ति वा
आम् आम् स्पष्टम्
अग्रे
अश्वः धावति अश्वौ अश्वः धावन्ति
अस्तु अस्तु समीचीनं समीचीनं समीचीनम् अस्तु धन्यवादः भगिनि उर्मिला भगिनि स्पष्टमस्ति वा प्रश्नः अस्ति वा
प्रश्नः नास्ति स्पष्टमस्ति
अस्ति किल अस्तु अग्रे एकः एकः सम्भाषणः अस्ति अस्तु पश्यामः यशोदा कृष्णः मध्ये सम्भाषणम् अत्र अस्ति कः कः अस्तु जानकी भगिनि
आं भगिनि
भवती यशोदा
आं भगिनि
सुधा भगिनी भवती कृष्णः अस्तु
आं भगिनि
अस्तु सिद्धा अस्ति किल
सिद्धा अस्मि भगिनि
अस्तु समीचीनं अग्रे इदानीं पठतु आरम्भं करोतु जानकी भगिनी यशोदा
हे कृष्ण त्वं कुत्र असि
भगिनी अत्र सावधानेन पश्यामः सावधानेन पठामः पठित्वा अत्र कः पुरुषः इति वदामः अस्तु सावधानेन पठामः अस्तु यशोदा यशोदा किं वदति
हे कृष्ण त्वं मध्यमपुरुषः
सत्यं
त्वं कुत्र असि असि क्रियापदं मध्यमपुरुषः प्रथम मध्यमपुरुषस्य प्रथमरूपम्
एकवचनं
एकवचनरूपं
मध्यमपुरुष एकवचनं अस्तु
आम् आं भगिनि
अस्तु त्वं कुत्र असि इति माता पृच्छति
पृच्छति
तादृशमस्ति चेत् प्रथमपुरुषे कथं भवति भगिनि त्वं कुत्र असि इति स्थाने प्रथमपुरुषे कथं वक्तुं शक्नुमः
प्रथमपुरुषे कृष्णः कृष्णः कृष्णः
त्वं कुत्र असि इति मध्यमपुरुषे अस्ति मम प्रश्नः अस्ति प्रथमपुरुषे कथं लेखितुं शक्नुमः कथं वक्तुं शक्नुमः
कृष्णः हे कृष्ण त्वं कुत्र गच्छति गच्छति अस्ति
अस्तु अस्ति 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 समीचीनम् परन्तु त्वम् अस्ति इति क्रियापदं
कृष्णः कृष्णः कुत्र अस्ति
कृष्णमुद्दिश्य एव पृच्छति किल माता
आम्
हे कृष्ण कृष्णः कुत्र अस्ति इति वदति वा पृच्छति वा माता उदाहरणार्थम् अहं पृच्छामि हे जानकी जानकी कुत्र अस्ति इति अहं पृच्छामि वा
त्वं कुत्र अस्ति इति एव पृच्छामि
न न त्वं कुत्र अस्ति इति कथं वक्तुं शक्नुमः अस्ति प्रथमपुरुषः त्वं मध्यमपुरुषः दे डोण्ट् गो टुगेदर् रैट्
त्वं कुत्र असि
तदेव अत्र लिखितमस्ति परन्तु मम प्रश्नः अस्ति भवती प्रथमपुरुषे परिवर्तनं करोतु इति अवगच्छति वा
हे कृष्ण
सुधा भगिनी भवती सहायं करोति वा
आं भगिनि हे कृष्ण भवान् कुत्र अस्ति
तदेव मम तदेव अहम् अपेक्षां कृतवती.
आं भगिनि
अवगच्छति वा?
अवगच्छामि भगिनि.
भवती अस्ति इति सम्यक्तया प्रयोगं कृतवती, परन्तु अस्ति इति अस्ति चेत् इति भवति चेत् तस्य प्रथमपुरुषः कदा किं भवितुम् अर्हति?
भवान्.
आम् भवान् एव.
आं भगिनि.
हे कृष्ण, भवान् कुत्र अस्ति इति एव वक्तुं शक्नुमः किल? त्वं कुत्र अस्ति इति वक्तुं न शक्नुमः. किमर्थं चेत् त्वं मध्यमपुरुषः, अस्ति प्रथमपुरुषः.
आं भगिनि.
दे डोण्ट् गो टुगेदर्.
आं भगिनि.
अवगच्छति वा?
अवगच्छामि भगिनि.
अस्तु अस्तु, सुन्दरं सुन्दरं. अस्तु अग्रे कृष्णः किं वदति? आम् एकवारं भवती वदतु. यशोदा किं वदति? जानकी भगिनी भवती वदतु, आरम्भं करोतु.
हे कृष्ण, त्वं कुत्र असि?
कृष्णः.
अहं द्वारस्य पृष्ठतः अस्मि. अग्रजः अपि अत्र अस्ति. अहम् इति उत्तमपुरुष एकवचने अस्ति. अहम् अस्मि इति उत्तमपुरुष एकवचने क्रियापदमस्ति. अग्रिमवाक्ये वदतु भगिनि.
पृष्ठतः इत्युक्ते?
पृष्ठतः इत्युक्ते बिहैण्ड्.
सत्यं सत्यम्. अहं द्वारस्य पृष्ठतः अस्मि. अस्तु, अनन्तरम्?
अग्रजः अपि अत्र अस्ति. अत्र अग्रजः इति प्रथमपुरुषे एकवचने अस्ति, नामपदम् अस्ति. अस्ति इति प्रथमपुरुष एकवचने क्रियापदम् अस्ति.
सुन्दरं सुन्दरं, बहु सुन्दरम्. अस्तु अग्रे यशोदा किं वदति?
युवां तत्रैव स्तः किम्?
इत्युक्ते
इत्युक्ते
सर्वं वदतु, भवत्येव वदतु. युवां तत्रैव स्तः किम्?
युवां मध्यमपुरुषस्य द्विवचने.
सत्यं सत्यं.
तत्रैव स्तः स्तः मध्यमपुरुषस्य द्विवचनक्रियापदम्.
सत्यं सत्यम्. अतः युवां
युवां प्रथम मध्यमपुरुषस्य
द्विवचनं. युवां स्तः एव वदामः चेत् तदपि केवलम् एक सरलवाक्यम् अस्ति. युवां स्तः
युवां स्तः मध्यमपुरुषस्य द्विवचनं.
सत्यं सत्यं. युवां तत्रैव स्तः किम् इति माता पृच्छति किल?
आम् आम्.
यशोदा पृच्छति. अस्तु
कृष्णः.
न मम प्रश्नः अस्ति, यदा प्रथमपुरुषे उपयोगं कर्तुं प्रयत्नं करोति वा? कर्तुं प्रयत्नं करोति वा?
भवन्तौ तत्रैव स्तः किम्?
सत्यं. भवन्तौ तत्रैव स्तः किम्? अत्र तकारः कीदृशतकारः भवति स्थाने?
प्रथमपुरुषे अस्ति चेत् ह्रस्वः, मध्यमपुरुषे अस्ति
ह्रस्वर्ण महाप्राण अल्पप्राण इति वक्तव्यम्.
प्रथमपुरुषे अस्ति चेत् अल्पप्राणः, मध्यमपुरुषे अस्ति दीर्घप्राणः
महाप्राणः.
महाप्राणः
दीर्घ इति न
महाप्राण
इति वदामः चेत् दीर्घ, परन्तु अत्र अल्पप्राण महाप्राण इति वक्तव्यम्.
अल्पप्राणः महाप्राणः.
आम् आम्. स्पष्टमस्ति किल भगिनि?
आं भगिनि स्पष्टमस्ति.
सुन्दरं सुन्दरम्. अनन्तरं कृष्णः.
आम्, आवाम् अत्रैव स्वः. आवाम् इति मध्यमपुरुष द्विवचनरूपम् अस्ति. स्वः इति मध्यमपुरुष द्विवचनक्रियापदम् अस्ति. नीला अपि अत्र
उत्तमपुरुष भगिनि.
भगिनि
उत्तमपुरुष
सम्पूर्ण
सारि उत्तमपुरुष द्विवचने अस्ति. नीला अपि अत्र अस्ति. नीला इति प्रथमपुरुषे एकवचने अस्ति. अस्ति इति प्रथम सारि नीला इति प्रथमविभक्तौ एकवचने अस्ति. अस्ति इति प्रथमपुरुषे एकवचने अस्ति. आवाम् इति अपि प्रथमपुरुष इति एव वदनीयं किल भगिनि? अत्र तद् नामपदम् अस्ति, प्रथमविभक्ति एव तद्, प्रथमविभक्ति द्विवचन अस्मत् शब्दः.
आम् सत्यं सत्यम् आम्, परन्तु उत्तमपुरुषः अत्र
आम् यत्र उत्तमपुरुषः क्रियापदम् अस्ति तत्र योजयामः, परन्तु नामपदं प्रथमाविभक्तौ एव अस्ति.
सत्यं सत्यं सत्यम् अहम् आवां वयम् एव भवति किल. आम् सत्यं सत्यम्. अनन्तरं यशोदा किं वदति?
यूयं चोराः स्त, यूयं मध्यमपुरुष बहुवचनरूपं, स्थ मध्यमपुरुष बहुवचनक्रियापदम्.
सत्यं सत्यं.
किम् अस्ति तव हस्ते? किं नपुंसकलिङ्गरूपं प्रथम.
किम् अस्ति तव हस्ते?
किम् अस्ति तव हस्ते? किं तव हस्ते?
अत्र किम् अस्ति तव हस्ते भवितुम् अर्हति वा, अथवा किम् अस्ति एव समीचीनमेव अस्ति वा? सुधा भगिनी भवत्याः
किम् अस्ति एव,
किम् अस्ति एव समीचीनं भगिनि.
किम् अस्ति एव नपुंसकलिङ्गं
किमर्थम्?
नपुंसकलिङ्गं पदं भगिनि किम् अस्ति इति.
समीचीनं, तदेव तदेव समीचीनम्. अस्तु, किमस्ति तव हस्ते समीचीनं. जानकी भगिनि द्वौ अपि समीचीनमेव.
नवनीतं खादसि किम्? नवनीतं नपुंसकलिङ्गं खादसि मध्यमपुरुष
एकवचनं एकवचनं. सत्यं सत्यं. नवनीतं खादसि किम् इति यशोदा पृच्छति.
आं भगिनि.
अनन्तरं कृष्णः किं वदति?
नैव अम्ब, वयं क्रीडामः. वयम् इति उत्तमपुरुषे बहुवचनम् अस्ति, क्रीडामः इति क्रीड् धातुतः उत्तमपुरुषे बहुवचने अस्ति.
असत्यं वदथ. असत्यं नपुंसकलिङ्गरूपं, वदथ मध्यमपुरुष बहुवचनरूपं.
सत्यं.
नवनीतं चोरयथ खलु. नवनीतं नपुंसकलिङ्गरूपं, चोरयथ चोरयथ मध्यमपुरुष बहुवचनरूप बहुवचनरूपधातु.
आं, वदथ अपि बहुवचन मध्यमपुरुष बहुवचनं, चोरयथ अपि बहुवचनं मध्यमपुरुष बहुवचनं.
आम्
समीचीनम्. अनन्तरम् असत्यं वदथ, नवनीतं चोरयथ
खलु
इति. आम् कृष्णः.
त्वमेव यच्छसि खलु, पुनः वयं किमर्थं चोरयामः? अत्र यच्छसि इति मध्यमपुरुषे एकवचने अस्ति.
सत्यं.
वयम् इति उत्तमपुरुषे बहुवचने अस्ति. चोरयामः इति चोरधातुतः उत्तमपुरुषे बहुवचने अस्ति.
सत्यं सत्यं. धन्यवादः धन्यवादः जानकी भगिनी, सुधा भगिनी धन्यवादः. अनन्तरम् अन्यस्य क्रमः भवति सविता भगिनी, रविमहोदय
धन्यवादः
धन्यवादः धन्यवादः. सविता भगिनी भवती, यशोदा भवतु, कृष्णः रविमहोदय.
किन्तु गोपिका वदति त्वं नवनीतं नयसि इति. वदति उत्तमपुरुषः एकवचन क्रियापदं, त्वं मध्यमपुरुष एकवचन यसि इस् एक मध्यमपुरुष एकवचन क्रियापदं
सत्यं सत्यं
रविमहोदय अस्ति
मिथ्या अम्ब अग्रजं पृच्छसि चेतु सत्यम् अवगच्छसि
मिथ्या इत्युक्ते किम् इति अहमेव द्रष्टव्यमस्ति दृष्ट्वा वदामि अन्यकोपि वदतु जानाति चेत् वदतु अनन्तरं
मिथ्याः
अग्रज
भगिनी मिथ्या इत्युक्ते प्रिया अम्ब
प्रिया अम्ब अस्तु मिथ्या अम्ब प्रिया अम्ब प्रिया भगिनी इति वदामः किल अस्तु अस्तु
धन्यवादः
लै
Yeah, Mithya Amba myth is lie.
English myth only, Bhagini. Myth iti vadama kila Angila bhashayam. False or wrong. Illusion iti artha.
Okay, Danyavada.
Mithya Amba. Mithya iti kim Bhagini?
मिथ्याम्ब अग्रजं पृच्छसि चेत् सत्यम् अवगच्छसि
क्षम्यतां भगिनि क्षम्यतां
चिन्ता मास्तु भगिनि चिन्ता मास्तु आं महोदय रविमहोदय भवान् वदतु महोदय अग्रजं पृच्छसि चेत् सत्यम् अवगच्छति
अग्रजं पृच्छसि चेत् तु सत्यम् अवगच्छसि
अतः पुरुषः कः इति वक्तव्यम्
प्रथमपुरुषः भगिनि
सहायं करोतु माधव भगिनि सहायं करोतु
पृच्छसि इस् मध्यमपुरुष भगिनि मध्यमपुरुष
पृच्छसि इति अस्ति चेत् कर्तृपदं किं भवितुमर्हति
कर्तृपदम् अग्रजम्
यु हेव् अ लाट् आफ् हेल्पर्स् महोदय
अग्रजं पृच्छसि
अत्र अत्र कर्तृपदं न लिखितम् अस्ति परन्तु अत्र अस्ति पृच्छसि इति अस्ति चेत् मध्यमपुरुषे एकवचनं कर्तृपदं किं भवितुमर्हति भवान् एव दृष्ट्वा वदतु पेज् नम्बर् 38 मध्ये दृष्ट्वा वदतु पृच्छसि इति अस्ति चेत् कर्तृपदं किं भवितुमर्हति
त्वं
सत्यम् अत्र न लिखितं कामदेव अग्रजं पृच्छसि मीनिङ्ग् वाट् वाट् डस् इट् मीन्
त्वं मीन्स् यु आस्क् बिग् ब्रदर्
सत्यं सत्यम् इफ् यु आस्क् बिग् ब्रदर्
चेतु सत्यम् अवगच्छसि
मीनिङ्ग्
whether he is telling true or not
if you ask my big brother he will tell you will know what the truth is
he will, okay
asto tvam agrajam pruchhasi chet kyam avagachhasi iti krishna vadati atra keke pada keke padani kani kani padani
भगिनि अव अवगच्छसि इस् मध्यमपुरुषः एकवचन
सत्यम्
एष्टोदशलै प्रति भगिनि
एकनिमिषः महोदय
आं भगिनि
इतोपि अस्ति वा वक्तुम् इतोपि अस्ति वा तावदेव किल अत्र
अग्रजम्
अत्र पदद्वयम् अस्ति पृच्छसि अवगच्छसि तद्वयमपि एकवचने अस्ति
गच्छसि
पृच्छसि अवगच्छसि
पृच्छसि
मध्यमपुरुषे एकवचने अस्ति आम् मध्यमपुरुषे एकवचने अस्ति तस्य कर्तृपदं किम् अस्ति त्वं
त्वं
त्वं पृच्छसि त्वम् अवगच्छसि
आं भगिनि
भवान् त्वम् अवगच्छसि वा
अवगच्छामि भगिनि
सुन्दरम् अस्तु अस्तु अग्रे माता किं वदति यशोदा किं वदति
युवां चौरौ सः एव चोरौ सः एव किमर्थम् असन्ध्यम् असत्यम् असत्यं कथयसि कथयसि ओके कथयति ओके युवां चोरौ चोरौ न भगिनि चोरौ सः एव किमर्थम् असत्यं कथयसि युवां मध्यमपुरुषे द्विवचनं चोरौ द्विवचन अस्ति सः मध्यमपुरुषे द्विवचने क्रियापदमस्ति कथयसि मध्यमपुरुषे
कथयसि भगिनि कथयसि
कथयसि हा भगिनि कथयसि न भगिनि कथयसि मध्यमपुरुषे एकवचन क्रियापदम् अस्ति
सत्यं 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 कृष्णः
कृष्ण नीले त्वं वदसि चेदेव अम्बा विश्वसिति विश्वसिति
नीले त्वं वदसि त्वं वदसि चेदेव
चेदेव विश्वसिति भगिनी त्वम् इस् मध्यमपुरुष एकवचन
सत्यं
वदसि इस् आल्सो मध्यमपुरुष एकवचन
सत्यं सत्यं
देन् विश्वसिति विश्वसिति इस् विश्वसिति इस् प्रथमपुरुष एकवचन भगिनि
सत्यं महोदय सत्यं सम्यक्तया उक्तवान् सम्यक्तया
पर्याप्तं पर्याप्तम् अहं विश्वसिनी आगच्छत विश्वसिनी इस् उत्तमपुरुष प्रथमा विभक्ति अयो उत्तमपुरुष एकवचन उत्तमपुरुष कर्तृपदम् आगच्छत मध्यमपुरुष बहुवचन भगिनि
सत्यं
बहुवचन क्रियापदम्
अतः तस्य कर्तृपदं किं भवितुम् अर्हति
त्वं त्वं युव
किं भगिनि अहं सम्यक् न शृणोमि
कर्तृपदं यूयं भगिनि
सत्यं यूयम् अवगच्छ आगच्छत यूयम् आगच्छत अनन्तरं कृष्णः
आं भगिनि अस्तु आगच्छामः
सत्यम् अस्तु आगच्छामः
आगच्छामः आगच्छामः इस् उत्तमपुरुषः बहुवचन
सत्यं तस्य कर्तृपदं किं भवितुमर्हति
गच्छामः भगिनि
कर्तृपदं महोदय इदानीमेव वयम् आरम्भं कृतवन्तः तस्मिन् विषये क्रियापदस्य विषये आरम्भं कृतवन्तः पाठम् आरम्भं कृतवन्तः इदानीं स्ट्रक्चर् इति अस्ति किल स्ट्रक्चर् वी हाव् टु अण्डर्स्टाण्ड् स्ट्रक्चर् फस्ट् so it's good to refer the text here and there but after understanding the structure then it's good to have in the memory ekavaram katham shigram eva paitamaha madhu bagini urmila bagini
dhanyavada bagini
dhanyavada savita bagini dhanyavada madhu bagini
aam bagini
ऊर्मिला भगिनी
अस्ति अस्तु ऊर्मिला भगिनी
आम् केवलम् एकवारम् इदानीं कथाम् अवगच्छामः अत्र सम्भाषणम् अवगच्छामः किल सर्वे केवलम् एकवारं पठामः व्याकरणम् आवश्यकं नास्ति केवलम् एकवारं पठामः सम्भाषणमेव अस्तु यशोदा मधु भगिनी यशोदा ऊर्मिला भगिनी कृष्ण
हे कृष्ण त्वं कुत्र अस्ति
अहं द्वारस्य पृष्ठतः अस्मि अग्रजः अपि अत्र अस्ति
युवं तत्रैव स्तः किम्
युवां
तत्रैव स्तः किम्
आम् आवाम् अत्रैव स्वः नीला अपि अत्र अस्ति
यूयं चोराः स्तः किम् अस्ति तव हस्ते नवनीतं खादसि किम्
नैव अम्ब वयं क्रीडामः
असत्यं वदथ नवनीतं चोरयत खलु
त्वमेव यच्छसि खलु पुनः वयं किमर्थं चोरयामः
किन्तु गोपिका वदति त्वं नवनीतं नयसि इति
मिथ्या अम्ब अग्रजं पृच्छसि चेत् सत्यम् अवगच्छसि
युवां चोरस्तः एव किमर्थम् असत्यं कथयसि
नीले त्वं वदसि चेत् एव अम्बा विश्वसिति
पर्याप्तम् अहं विश्वसिमि अव आगच्छतः आगच्छत
अस्तु आगच्छामः
अस्तु सुन्दरमस्ति अत्र एकः प्रश्नः अस्ति भवन्तौ एव वदतः किम् इत्युक्ते विश्वसिति इति अस्ति चेत् तस्य विभक्तिः का विभक्तिवर्णि पठितवन्तः तत्र विश्वसि कस्मिन् विश्वसिति इति अस्ति भवति किल तस्य विभक्तिः का कुत्र विश्वसि उदाहरणार्थं विश्वसिति इति क्रियापदम् अस्ति चेत् विभक्तिः का विभक्तिः उपयोगं कुर्मः साधारणतया उर्मिला भगिनी भवती अपि चिन्तयित्वा वदतु अथवा मधु भगिनी
विश्वसिति लोट् लकार प्रथमपुरुष
न मम प्रश्नः अस्ति विश्वसिति इति पदम् आगच्छति चेत् का विभक्तिः भवितुम् अर्हति
का विभक्ति अस्तु
विभक्ति आम्
प्रथमा एकवचन
विभक्ति भगिनि
प्रथमा एकवचनम् आगच्छति
न मम प्रश्नः समीचीनम् अस्ति वा इति अहं न अवगच्छामि. मम प्रश्नः अस्ति यदा विश्वसिति इति पदम् एकस्मिन् वाक्ये अथवा कथायाम् अस्ति चेत् का विभक्तिः भवितुम् अर्हति. विभक्तिः क्रियापदस्य विषये न मम प्रश्नः. विभक्तिः इत्युक्ते नामपदम् अस्ति किल, का विभक्तिः भवितुम् अर्हति. सुधा भगिनी मम प्रश्नः भवती अवगच्छति वा?
आं भगिनि.
भवत्याः उत्तरं किम्? यदा वयं विभक्तिवळरीपुस्तकं पठितवन्तः पूर्वस्मिन् काले तदा विश्वसिति इति एकं पदम् अस्ति चेत् का विभक्तिः भवितुम् अर्हति इति मम प्रश्नः.
विश्वसिति अस्ति चेत्
सप्तमी विभक्ति.
सत्यं सप्तमी. का उक्तवती?
चम्पा.
चम्पा भगिनि सुन्दरमस्ति भगिनि, सुन्दरं. सर्वे स्मरन्ति वा किमर्थं सप्तमी भवति इति? उदाहरणार्थम् अहं वदामि. स्निह्यति विश्वसिति इति अस्ति चेत् सप्तमी विभक्ति भवति इति वयं पठितवन्तः. उदाहरणार्थं सः वञ्चकः अतः डेश् मा विश्वसितु. सः इति स्थाने किं भवितुम् अर्हति? सः वञ्चकः अतः डेश् डेश् इति स्थाने सः शब्दस्य सप्तमी किं भवति? अतः डेश् मा विश्वसितु. तस्मिन् मा विश्वसितु. विश्वसितु इत्युक्ते कान्फिडेन्स्, ट्रस्ट्. प्लीज् डु नाट् ट्रस्ट् इन् हिम्, इन् हिम् इति भवति. अस्तु, सः वञ्चकः. वञ्चकः नाम बेड् मेन्, ओके, इति चिन्तयतु. अ ग्रीडी पर्सन् आर् हू केन् चीट् आर् समथिङ्ग् लैक् दट्. सो सः वञ्चकः अतः तस्मिन् मा विश्वसितु. Do not trust in him. इति अस्ति. अतः सप्त यदा सप्तमी विभक्ति विश्वसिति विश्वसितु इति अस्ति चेत् सप्तमी विभक्तिः साधारणतया भवति.
आं भगिनि.
स्मरति वा? सर्वे स्मरन्ति वा? भगिनि चिन्ता मास्तु. इदानीं किञ्चित् नूतनविषयं पठति चेत् समीचीनमेव, चिन्ता मास्तु. यदा ते अन्यजनाः पठितवन्तः चेत् इदानीं स्मरन्ति वा? किल यदा वयं पठितवन्तः स्निह्यति विश्वसिति
विश्वसिति
विश्वसिति स्निह्यति इत्येतयोः धात्वोः प्रयोगः यत्र भवति तत्र स्नेहस्य विश्वासस्य च यत् पात्रं तस्य सप्तमी विभक्तिः भवति. अस्तु, केवलं स्मरणार्थम् अहं पृष्टवती. ब्रह्मः भवत् चेत् पृच्छतु. इदानीं केवलं क्रियापदस्य विषये एव वयं पठितवन्तः, परन्तु अत्र विश्वसिति इति एकं पदम् आगतं किल. अतः केवलं स्मारणार्थं, जस्ट् टु रिमैण्ड् आल् आफ़् यू अबौट् द वर्ड् वेर् वि लर्न्ड् विच् विभक्ति, ऐ आस्क् दिस् क्वश्चन्. भ्रमः जातः वा सर्वे? Did all of you get confused about this question?
Na bhagini atra
avagacchati kila?
Aam bhagini.
Kevalam smaranartham, just to remind iti aham vaktum icchami. Astu, samichan. Astu, ek nimisha agre kinchit pa पठामः वा अद्य अत्रैव स्थगयामः वा? केवलम् अत्र एव स्थगयामः वा अद्य?
आं भगिनि, आं भगिनि.
भगिनि कृष्णा हि टेल् नीले त्वं वदसि तदेव अम्बा विश्वसिति, सो वि केन् we do it like twai eva amba vishwasiti, is it okay bagini?
Punha
like kutra bagini
neele tvam vadasi tvam vadasi vadasi che deva amba vishwasiti.
So can we use saptami vibhakti there bagini? Twai eva amba vishwasiti.
Aha, mayi eva. Wait. पुनः वदतु, पुनः.
नीले त्वं वदसि त्वयि एव अम्बा विश्वसिति, इस् इट् ओके भगिनि? केन् यु डू देट्? ऐ
डोण्ट्
नो. मयि सेलिङ्ग् टु नीला नो भगिनि. नीले त्वं वदसि,
he is telling to neela, you tell, only then mom
she will trust in you.
Trust in me,
trust only her. You
only, if you tell, mom will trust me. Okay. You mean that neela,
she has trust in me. Bagini
neela tvam vadasi vadasiche deva amba vishwasiti.
Aam bagini. So I thought she has got trust in you to tell that. How should we pronounce it? How should we tell bagini? She trusts only you. Like that. She trusts only
Neele.
Can Neele, we do like that?
Tvam vadasi. Atra. Atra eva vayam patita vantaha bagini. Kutra. कुत्र विश्वसिति इति पदं भवति इति पात्रं, इन् हूम् द ट्रस्ट् इस् नीडेड्.
ओके, आं भगिनि, यस् भगिनि,
इन् हूम् इस् द ट्रस्ट् नीडेड्? सो द ट्रस्ट् इस् नीडेड् आन् कृष्ण. इफ् नीला टेल्स् देन् मोम् विल् ट्रस्ट् मी. द पात्रं हेस् टु बि ट्रस्टेड्. द पात्रं नाम हूवर् हेस् टु बि ट्रस्टेड्. That is my understanding.
Okay, I thought other way like that. Trust, yeah, she will trust
but
Neela.
Only if you tell, only if Neela tells, mom will trust me.
Okay, Bhagini, understood.
So, Mayi Vishwasiti.
Kasmin
Vishwasam Bhavati Chet Patram. The person who has to be trusted, that is the patram.
Okay.
And that should be in saptami vibhakti.
Okay, bagini,
so
understood.
Here who has to be trusted? Krishna has to be trusted. how will he be trusted? Only if Neela tells, then Krishna will be trusted.
So we can tell us, Tvam Vadasi Chedeva Amba Mayi Vishwasiti.
Satyam, Satyam.
Understood, Bhagini. Dhanyavadam.
Samichana, Samichana. Uttama Prashnaha, Bhagini. Uttama Prashnaha. Anya Prashnaha Asti Va?
Nasti, Bhagini.
सर्वेषां कृते पुनः अद्य केवलम् एकघण्टा एव वयं मेलितुं शक्नुमः. अस्तु, अग्रिमवासरे मिलामः वा?
आं भगिनि.
धन्यवादः.
धन्यवादः.
नमस्कारः.